इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेश चन्द शर्मा। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्र मोदी प्रोक्तवान् यत् एकताम् आतंकवादं च विरुध्य संघर्षे समेषां भारतीयानाम् एकता देशस्य कृते सर्वोत्तमा शक्तिः वर्तते। आकाशवाण्यां मन की बात इति तस्मिन् कार्यक्रमे श्रीमोदी राष्ट्रं सम्बोधयन् जनान् समाश्वासितवान् यत् पहलगाम आतंक्याक्रमणस्य अभियुक्ताः निश्चयेन दण्डिताः स्युः। प्रधानमन्त्री श्रीनरेन्द्र मोदी समुदीरितवान् यत् आतंक्याक्रमणानन्तरं वैश्विक नेतारः दूरभाषमाध्यमेन पत्रमाध्यमेन च आक्रमणस्य निन्दां कृतवन्तः। श्रीमोदी जम्मूकश्मीरे शान्तिस्थापनायाः लोकतन्त्र सुदृढीकरणस्य अथ पर्यटकानां संख्यावृद्धिविषये अपि स्वविचारान् प्रकटितवान्। श्रीमोदी मासेऽस्मिन् आर्यभट्ट उपग्रहस्य प्रक्षेपणस्य स्वर्णजयन्ती वर्षपूर्तिमालक्ष्य प्रसन्नतां प्रकटितवान्। राष्ट्रिय अन्वेषणाभिकरणेन NIA इत्येतेन पहलगाम आतंक्याक्रमणस्य अन्वेषणं तीव्रगत्या समारब्धम्। एकस्मिन् वक्तव्ये अभिकरणेन एतेन प्रोक्तं यत् दलानि घटनास्थले समुपस्थितैः जनैः सह वार्ताक्रमं साधयन्ति, ये जनाः बैसरन उपत्यकायाम् आक्रमणसमये समुपस्थिताः आसन्। एतदन्तरा जम्मूकश्मीर आरक्षिबलेन तत्र द्वौ आतंकिनौ निगडितौ। वाणिज्योद्योग मन्त्री पीयूष गोयलः प्रोक्तवान् यत् भारतेन अग्रिमेषु पञ्चविंशतितः त्रिंशत् वर्षेषु ट्रिलियन् डॉलर इत्यात्मकीम् अर्थव्यवस्थां तदा एव प्राप्तुं शक्यते यदा स्वस्थ नागरिकैः एषा अर्थव्यवस्था सञ्चालयेत्। नवदेहल्यां विश्व स्वास्थ्य शिखर सम्मेलनं सम्बोधयन् श्रीगोयलः प्रतिपादितवान् यत् शासनेन प्रवर्तितायाः प्रत्येकस्याः योजनायाः पदक्षेपस्य च उद्देश्यं स्वनागरिकाणां स्वास्थ्ये समग्र विकासे च साहाय्यं वर्तते।
Access to healthcare is something that we have been very, very conscious of in India, and the last few years have seen a tremendous growth in our own journey towards better quality of healthcare and a larger frame in which we can deliver healthcare to the citizens of India.
अग्रे वार्तायां मध्यप्रदेशस्य मन्दसौर जनपदे जातां मार्ग दुर्घटनाम् अभिलक्ष्य प्रधानमन्त्री श्रीनरेन्द्र मोदी शोकं प्रकटितवान्। अवधेयं यत् मन्दसौर स्थले दुर्घटनायां 10 जनाः मृताः, 4 हताहताः। सञ्चारपटले श्रीमोदी दुर्घटनायां मृतकानां प्रियजनान् प्रति स्वीय संवेदनाम् अभिव्यक्तवान्। रक्षामन्त्री राजनाथसिंहः CDS इति प्रमुखसैन्य अधिकारिणा अनिल चौहान इत्यमुना साकं गतदिने मेलनं कृतवान्। पहलगाम आतंक्याक्रमण विषये रक्षामन्त्री सैन्यप्रमुखेण चर्चां कृतवान्। सूत्रानुसारि चर्चान्तर्गतं अनिल चौहानः आतंकवादं विरुध्य रणनीति सज्जा विषये विस्तरेण योजनां प्रस्तुतवान्। उपवेशनेऽस्मिन् नैके सैन्याधिकारिणश्चापि समुपस्थिताः आसन्। अन्ते च क्रीडावार्तासु इण्डियन् प्रीमियर् लीग IPL इत्येतस्यां क्रिकेट् लीग प्रतिस्पर्धायां गतदिने क्रीडिते द्वन्द्वे मुम्बई इण्डियन्स इत्येतेन दलेन लखनऊ सुपर जायण्ट्स इत्येतत् दलं पराजितम्। अपरे द्वन्द्वे रॉयल चैलेंजर्स बेंगलोर इत्येतेन दलेन देहली कैपिटल्स इति दलं पराजितम्। IPL इति इंडियन प्रीमियर लीग इत्येतस्यां प्रतिस्पर्धायाम् अद्य साय 7:30 राजस्थान रॉयल्स गुजरात टाइटन्स इत्येतयोः दलयोः मध्ये द्वन्द्वं भवेत् इति वार्ताः।